इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी ह्यः गुजरातस्य आदिवासी बहुल नर्मदा जनपदस्य डेडियापाड़ा नगरे 970 कोट्यधिकरूप्यकैः परियोजनानां उद्घाटनं शिलान्यासञ्च अकरोत्। एताः परियोजनाः आधारभूतसंरचनायाः स्वास्थ्यसेवानां च सुदृढीकरणार्थं वर्तन्ते, यासां माध्यमेन आदिवासी सशक्तिकरणस्य विषये विशेषतः बलाघातः क्रियते। एतासां परियोजनानां शिलान्यासः जनजातीयगौरवदिवसस्यावसरे कृतः, तत्र च विशिष्टस्य आदिवासीनेतुः स्वतन्त्रतासेनानिनः च भगवतः बिरसामुण्डावर्यस्य सार्धैकशतजन्मजयन्त्युत्सवे अभवत्। उल्लेखनीयम् अस्ति यत् प्रधानमन्त्री श्रीनरेन्द्रमोदी भगवतः बिरसामुण्डावर्यस्य जयन्त्यवसरे आयोजितां सभां सम्बोधयन् उपर्युक्ततथ्यानि प्राकटयत्। श्रीमोदी इदमपि प्रोक्तवान् यत् जनजातीयगौरवं सहस्राधिकवर्षेभ्यः भारतीयचेतनायाः अभिन्नाङ्गत्वे न वर्तते, आदिवासीसमाजस्य च स्वतन्त्रतासंग्रामे महत्वपूर्णं योगदानं न कदापि विस्मर्तुं शक्यते। इतः पूर्वं प्रधानमन्त्री श्रीमोदी मुम्बई अहमदाबाद हाई स्पीड रेल कॉरिडोर इत्यस्य प्रगतेः समीक्षणार्थं गुजरात राज्यस्य सूरते निर्माणाधीन बुलेट रेल यान स्थानकस्य भ्रमणम् अकरोत्। श्रीमोदिना तत्रत्याधिकारिभिः सहापि वार्तालापः कृतः, अथ च कार्याणां समीक्षा विहिता। यदा हि विशिष्ट बुलेट रेल मार्गः कार्यारम्भं करिष्यति तदा मुम्बई महानगरं अहमदाबादं चान्तरा गमनकालं होराद्वयं यावत् न्यूनं भविष्यति। अवधेयं यत् श्रीमोदिना सागवारा तालुकायाः देवमोगरा ग्रामे आदिवासी जनसमुदायस्य कुलदेव्याः पण्डोरी मातृदेव मन्दिरे पूजनम् अर्चनं चापि कृतम्। प्रधानमन्त्री ह्यः प्रातः सूरत विमानस्थानके अवरोहणं कृत्वा अन्त्रोली क्षेत्रे सम्प्राप्तवान्। श्रीमोदी विधानसभा निर्वाचने विजयाय बिहारी समुदाय धन्यवादं कृतज्ञतां च प्रकटितवान्। सः अवदत् यत् अधुना बिहार राज्यं विकासस्य नूतन औन्नत्यानि प्राप्तुं सज्जः अस्ति, यत् अस्मिन् निर्वाचने दृष्टम्।
बिहार आज दुनिया भर में छाया हुआ है, दुनिया में कहीं जाइए बिहार की टैलेंट आपको नजर आएगी, और ऐसा बिहार अब विकास में नई ऊंचाई को प्राप्त करने का मिजाज दिखा रहा है। इस चुनाव में उस मिजाज के दर्शन हुए हैं। बिहार की माताएं बहनें और बिहार के नौजवान महिला युवा, ये एक ऐसा माई कॉम्बिनेशन बना है जिसने आने वाले अनेक दशकों की राजनीति का नींव मजबूत कर दी है।
दिल्ली अपराध शाखया अल फलाह विश्वविद्यालयं विरुद्ध पृथक पृथक द्वे FIR इति प्राथमिकी पंजीकरणं कृतम्, एकः कपटाय अन्यश्च कूट रचनायै। दिल्ली आरक्षक स्रोतस्य अनुसारम् अपराध शाखा विभागस्य एकं दलं ह्यः राष्ट्रिय राजधान्याम् ओखलाक्षेत्रे विश्वविद्यालयस्य कार्यालयं गतवान्। दिल्ली आरक्षकैः विश्वविद्यालयाय सूचना प्रसारिता, अपि च तेन कतिपय पत्राणि अपि याचितानि। भारतीय वायु सैन्य दलम् अद्यारभ्य फ्रांस देशे द्वैपक्षीय वायु अभ्यासस्य गरुण 25 इत्यस्य अष्टम संस्करणे भागं ग्रहीष्यति। केरल राज्यस्य प्रसिद्धं सबरीमला अयप्पा मन्दिरम् अद्य शुभ मण्डला मकर विलक्कु तीर्थयात्रायै उद्घाटयिष्यते। आशीर्वादम् आध्यात्मिकानुभवं च प्राप्तुं लक्षशः तीर्थयात्रिणां स्वागताय पर्वतीय मन्दिरं सज्जः अस्ति। कोलकातायाः इडन्स गार्डन्स क्रीडाङ्गणे दक्षिणाफ्रिका दलं भारतं विरुद्ध्य प्रथम निकष क्रिकेट स्पर्धायाः द्वितीय दिने द्वितीय चक्रे 93 धावनाङ्कान् समर्ज्य 7 क्रीडकानां हानौ अस्ति। इति वार्ताः।